ससेनां महतीं कर्षन् पूर्वसागरगामिनीं बभौ हरजटा भ्रष्टां गंगामिव भगीरथः।
स इति महतीं सेनां पूर्वसागरगामिनीं कर्षन् स रघुः हरस्य जटाभ्यः भ्रष्टां गंगां कर्षन् सापि पूर्वसागरगामिनी भगीरथ इव बभौ। भगीरथो नाम कश्चित् कपिलदग्धानां सागराणां नत्ता तत्पावनाय हरकिरीटात् गंगां प्रवर्तयिता राजा, यत्सम्बन्धात् गंगा च भागीरथीति गीयते।
त्याजितैः फलमुत्खातैः भग्नैश्च बहुधा नृपैः तस्यासीदुल्बणो मार्गः पादपैरिवदन्तिनः।
त्याजितैरिति फलं फले धने बीजे निष्पत्तौ भोगलाभयोः इति केशवः। फलं लाभं वृक्षपक्षे प्रसवञ्च त्याजितैः त्यजेर्न्यन्ताद्विकर्मकात् अप्रधाने कर्मणि क्तः। उत्खातैः स्वपदाच्यावितैः अन्यत्र उत्पाटितैः बहुधा भग्नैः रणे जितैः अन्यत्र छिन्नैः नृपैः पादपैः दन्तिनो गजस्य इव तस्य रघोः मार्गम् उल्बणः प्रकाश आसीत्। प्रकाशम् प्रकटम् स्पष्टम् उल्बणम् विशदम् स्फुटम् इति यादवः।
पौरस्त्यान् एवमाक्रामन् तांस्तान् जनपदाञ्जयि प्राप तालीवनश्यामम् उपकण्ठम् महोदधेः।
पौरस्त्यानिति जयी जयनशीलः, जिदृक्षि विश्रि इत्यादिना इनि प्रत्ययः। स रघुः एवम् पुरः भवान् पौरस्त्यान् प्राच्यान् दक्षिणा पश्चात् पुरसस्त्यक् इति त्यक् प्रत्ययः। तांस्तान् सर्वान् इत्यर्थः। वीप्सायाम् द्विरुक्तिः जनपदान् देशान् आक्रमन् तालीवनैः श्यामम् महोदधेः उपकण्ठम् अन्तिकम् प्राप।
अनम्राणाम् समुद्धर्तुः तस्मात् सिन्धुरयादिव आत्मा संरक्षितः सुह्मैः वृत्तिमाश्रित्य वैतसीम्।
अनम्राणामिति अनम्राणाम् कर्मणि षष्ठी। समुद्धर्तुः उन्मूलयितुः तस्मात् रघोः सकाशात् भीत्रार्थानाम् भयहेतुः इत्यपादानत्वात् पञ्चमी। सिन्धुरयात् नदीवेगादिव सुह्मैः सुह्मदेशीयैः। सुह्मादयः शब्दाः जनपदवचनाः क्षत्रियम् आचक्षते। वैतसीम् वेतसः सम्बन्धिनीम् वृत्तिम् प्रणतिम् इत्यर्थः। आश्रित्य आत्मा संरक्षितः। अत्र कौटिल्यः बलीयसाभियुक्तो दुर्बलः सर्वत्र अनुप्रणतो वेतसधर्मम् आतिष्ठेत् इति।
वङ्गान् उत्खाय तरसा नेता नौसाधनोद्यतान् निचखान जयस्तम्भान् गङ्गास्रोतोऽन्तरेषु सः।
वङ्गानिति नेता नायकः स रघुः नौभिः साधनैः उद्यतान् सन्नद्धान् वङ्गान् राज्ञः तरसा बलेन। तरसी बलरंहसी इति यादवः। उत्खाय उन्मूल्य गङ्गायाः स्रोतसाम् प्रवाहाणाम् अन्तरेषु द्वीपेषु जयस्तम्भान् निचखान स्थापितवानित्यर्थः।
आपादपद्मप्रणताः कलमाइव ते रघुं फलैस्संवर्धयामासुः उत्खातप्रतिरोपिताः
आपादेति आपादपद्मं अङ्घ्रिपद्मपर्यन्तं प्रणताः अत एव उत्खाताः पूर्वम् उद्धृता अपि प्रतिरोपिताः पश्चात् स्थापिताः ते वङ्गाः कलमा इव शालिविशेषा इव शालयः कलमाद्याश्च षष्टिकाद्याश्च पुंस्यमी इत्यमरः तेऽपि आपादपद्मम् पादपद्ममूलपर्यन्तम् प्रणताः पादो बुध्ने तुरीयांश शैलप्रत्यन्तपर्वताः इति विश्वः उत्खातप्रतिरोपिताश्च रघुम् फलैः धनैः अन्यत्र सस्यैः संवर्धयामासुः फलम् फले धने बीजे निष्पत्तौ भोगलाभयोः सस्ये इति केशवः
स तीर्त्वा कपिशाम् सैन्यैः बद्धद्विरदसेतुभिः उत्कलादर्शितपथः कलिङ्गाभिमुखो ययौ
स इति स रघुः बद्धाः द्विरदा एव बद्धा द्विरदा एव सेतवः यैस्तैः सैन्यैः कपिशाम् नाम नदीम् तीर्त्वा करभाम् इति केचित् पठन्ति उत्कलैः राजभिः आदर्शितपथः सन्दर्शितमार्गस्सन् कलिङ्गाभिमुखो ययौ
स प्रतापम् महेन्द्रस्य मूर्ध्नि तीक्ष्णम् न्यवेशयत् अङ्कुशम् द्विरदस्येव यन्ता गम्भीरवेदिनः
स इति स रघुः महेन्द्रस्य कुलपर्वतविशेषस्य महेन्द्रो मलयः सह्यः शक्तिमान् वृक्षपर्वतः विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः इति विष्णुपुराणात् मूर्ध्नि तीक्ष्णम् दुःसहम् प्रतापम् यन्ता सारथिः गम्भीरवेदिनः द्विरदस्य गजविशेषस्य मूर्ध्नि तीक्ष्णम् निशितम् अङ्कुशम् इव न्यवेशयत् निक्षिप्तवान् त्वग्भेदाक्षोणितस्रावात् मांसस्य क्रथनादपि आत्मानम् यो न जानाति सस्याद् गम्भीरवेदिता इति राजपुत्रीये चिरकालेन यो वेत्ति शिक्षाम् परिचितामपि गम्भीरवेदी विज्ञेयः स गजो गजवेदिभिः इति मृगचर्मीये
प्रतिजग्राह कालिङ्गः तमस्त्रैर्गजसाधनः पक्षच्छेदोद्यतम् शक्रम् शिलावर्षीव पर्वतः
प्रतिजग्राहेति गजसाधनः सन् कालिङ्गः कलिङ्गानाम् राजा द्वैमगधकलिङ्ग इत्यादिना अण्प्रत्ययः अस्त्रैः आयुधैः तम् रघुम् पक्षाणाम् छेदे उद्यतम् उद्युक्तम् शक्रम् शिलावर्षी पर्वत इव प्रतिजग्राह प्रत्यभियुक्तवान्
द्विषाम् विषह्य काकुत्स्थः तत्र नाराच दुर्दिनम् सन्मङ्गलस्नात इव प्रतिपेदे जयश्रियम्
द्विषामिति काकुत्स्थः रघुः तत्र महेन्द्राद्रौ द्विषाम् नाराचदुर्दिनम् नाराचानाम् बाणविशेषाणाम् दुर्दिनम् लक्षणया वर्षमुच्यते विषह्य सहित्वा सत् यथाशास्त्रम् मङ्गलस्नात इव विजयमङ्गलार्थम् अभिषिक्त इव जयश्रियम् प्रतिपेदे प्राप यत्तु सर्वौषधिस्नानम् तन्माङ्गल्यमुदीरितम् इति यादवः
ताम्बूलीनाम् दलैस्तत्र रचितापानभूमयः नारिकेलासवं योधाः शात्रवं च पपुर्यशः
ताम्बूलीनाम् इति तत्र महेन्द्राद्रौ युध्यन्त इति योधाः पचाद्यच् रचिताः कल्पिताः आपानभूमयः पानयोग्यप्रदेशाः यैस्ते तथोक्ताः सन्तः नारिकेलासवम् नारिकेलमद्यम् ताम्बूलीनाम् नागवल्लीनाम् दलैः पपुः तत्र विजहृः इत्यर्थः शात्रवम् यशश्च पपुः जहृरित्यर्थः
गृहीतप्रतिमुक्तस्य स धर्मविजयी नृपः श्रियम् महेन्द्रनाथस्य जहार न तु मेदिनीम्
गृहीतेति धर्मविजयी धर्मार्थम् विजयशीलः स नृपः रघुः गृहीतश्चासौ प्रतिमुक्तश्च गृहीतप्रतिमुक्तः तस्य महेन्द्रनाथस्य कालिङ्गस्य श्रियम् जहार धर्मार्थमिति भावः मेदिनीम् तु न जहार शरणागतवात्सल्यादिति भावः
ततो वेलातटेनैव फलवत्पूगमालिनाम् अगस्त्याचरितामाशाम् अनाशास्य जयोययौ
तत इति ततः प्राचीविजयानन्तरम् फलवत् पूगमालिना फलितक्रमुकश्रेणीमता व्रीह्यादित्वात् इनि प्रत्ययः वेलायाः समुद्रकूलस्य तटेन उपान्तेनैव अगस्त्येन आचरिताम् आशाम् दक्षिणाम् दिशम् अनाशास्य जयः अयत्नसिद्धत्वात् अप्रार्थनीयजयः सन् ययौ अगस्त्यो दक्षिणामाशाम् आश्रित्य नभसि स्थितः वरुणस्यात्मजो योगी विन्ध्यवातापि मर्दनः इति ब्रह्मपुराणे
ससैन्यपरिभोगेण गजदानसुगन्धिना कावेरीम् सरिताम् पत्युः शङ्कनीयाम् इवाकरोत्
स इति स रघुः गजानाम् दानेन मदेन सुगन्धिना सुरभिगन्धिना गन्धस्य इत्यादिना इकारादेशः समासान्तः यद्यपि गन्धस्य इत्वे तदेकान्तग्रहणम् कर्तव्यम् इति नैसर्गिकगन्धविवक्षायाम् एव इकारादेशः तथापि निरङ्कुशाः कवयः तथा माघकाव्ये ववुरयुच्छदगुच्छसुगन्धयः सततमाश्रुतगानगिरोलिभिः नैषधे च अपांहि तृप्ताय नवारिधारा स्वादुः सुगन्धिः स्वदते तुषारा इति न कर्मधारयात् मत्वर्थीयः इति निषेधात् इनि प्रत्ययपक्षोऽपि जघन्य एव सेनायाम् समवेताः सैन्याः सेनायाम् समवेता ये सैन्यास्ते सैनिकाश्च ते इत्यमरः सेनाया वा इति ण्यप्रत्ययः तेषाम् परिभोगेन कावेरीम् नाम सरितम् सरिताम् पत्युः समुद्रस्य शङ्कनीयाम् न विश्वसनीयाम् इव अकरोत् सम्भोगलिङ्गदर्शनात् भर्तुः अविश्वासो भवतीति भावः
बलैरध्युषितास्तस्य विजिगीषोर्गताध्वनः मारीचोद्भ्रान्तहारीताः मलयाद्रेरुपत्यकाः
बलैरिति विजिगीषोः विजेतुमिच्छोः गताध्वनः तस्य रघोः बलैः सैन्यैः बलम् शक्तिर्बलम् सैन्यम् इति यादवः मारीचेषु मरीचवनेषु उद्भ्रान्ताः परिभ्रान्ताः हारीताः पक्षिविशेषाः यासुताः तेषाम् विशेषा हारीतो मद्गुः कारण्डवः प्लवः इत्यमरः मलयाद्रेः उपत्यका आसन्नभूमयः उपत्यकाद्रेरासन्ना भूमिरुर्ध्वमधित्यक इत्यमरः उपाधिभ्याम् त्यकन् इत्यादिना त्यकन् प्रत्ययः अध्युषिताः उपत्यकासु उषितम् इत्यर्थः उपान्वध्याङ्वसः इति कर्मत्वम्
ससञ्जुरश्वक्षुण्णानाम् एलानाम् उत्पतिष्णवः तुल्यगन्धिषु मत्तेभ कटेषु फलरेणवः
ससञ्जुरिति अश्वैः क्षुण्णानाम् एलानाम् एलालतानाम् उत्पतिष्णवः उत्पतनशीलाः अलङ्कृई इत्यादिना इष्णुच् प्रत्ययः फलरेणवः फलरजांसि तुल्यगन्धिषु समानगन्धिषु सर्वधनीतिवत् इन्नन्तः बहुव्रीहिः मत्तेभानाम् कटेषु ससञ्जुः सक्ताः गजगण्डे कटीकटौ इति कोशः